ओम अथ एकादशोऽध्यायः शिवलिङ्गपूजनदानप्रकाराः ऋषयवूचुः कथम् लिङ्गम् प्रतिष्ठाप्यम् कथम् वा तस्य लक्षणम् कथम् वा तत्समभ्यर्च्यम् देशे काले च केन हि सूत उवाच युष्मदर्थम् प्रवक्ष्यामि बुध्यताम् अवधानतः अनुकूले शुभे काले पुण्ये तीर्थे तटे तथा यथेष्टम् लिङ्गमारोप्यम् यत्र स्यान्नित्यमर्चनम् पार्थिवेन तथाप्येनम् तैजसेन यथा रुचि कल्पलक्षणसंयुक्तम् लिङ्गम् पूजाफलम् लभेत् सर्वलक्षणसंयुक्तम् सद्यः पूजाफलप्रदम् चरे विधिष्यते सूक्ष्मम् स्थावरे स्थूलमेव हि सलक्षणम् सपीठम् च स्थापये शिवनिर्मितम् मण्डलम् चतुरस्रम् वा त्रिकोणमथवा तथा खट्वाङ्गवन् मध्यसूक्ष्मम् लिङ्गपीठम् महाफलम् प्रथमम् मृच्छिलादिभ्यो लिङ्गम् लोहादिभिकृतम् येन लिङ्गम् तेन पीठम् स्थावरे हि विधिष्यते लिङ्गम् पीठम् चरेत्वेकम् लिङ्गम् बाणकृतम् विना लिङ्गप्रमाणम् कर्तॄणाम् द्वादशाम् गुलमुत्तमम् न्यूनम् चेत् फलमल्पम् स्यादधिकम् नैव दुष्यते कर्तुरेकाङ्गुलन्यूनम् चरेऽपि च तथैव हि आदौ विमानम् शिल्पेन कार्यम् देवगणैर्युतम् तत्र गर्भगृहे रम्ये दृढे दर्पणसन्निधे भूषितेन वरत्ने च दिग्द्वारे च प्रधानके नीलम् रक्तम् च वैडूर्यम् श्यामम् मारकदम् ददा मुक्ता प्रवालगोमेद वज्राणि नवरत्नकम् मध्ये लिङ्गम् महद्रव्यम् निक्षिपेत् सह वैदिके सम्पूज्य लिङ्गम् सद्याद्यैः पञ्चस्थाने यथाक्रमम् अग्नौ च हुत्वा बहुधा हविषा सकुलम् च माम् अभ्यर्च गुरुमाचार्यमर्थैः कामैश्च बान्धवम् तद्याद् ऐश्वर्यमर्थिभ्यो जपम् अप्यजडम् तथा स्थावरम् जङ्गमम् जीवम् सर्वम् सन्तोषयत्ततः सुवर्णपूरिते श्वभ्रम् नवरत्नैश्च पूरिते सद्यादिब्रह्मचोच्चार्य ध्यात्वा देवम् परम् शुभम् उदीरि च महामन्त्रम् ओङ्कारम् नादघोषितम् लिङ्गम् तत्र प्रतिष्ठाप्य लिङ्गम् पीठेन योजयेत् लिङ्गम् सपीठम् निक्षिप्य नित्यलेपेन बन्धयेत् एवम् भेरम् च संस्थाप्यम् तत्रैव परमम् शुभम् पञ्चाक्षरेण भेरम् तु उत्सवार्थम् बहिस्तथा भेरम् गुरुभ्यो गृह्णीया साधुभिः पूजितम् तु वा एवम् लिङ्गे च भेरे च पूजा शिवपदप्रदा पुनश्च द्विविधम् प्रोक्तम् स्थावरम् जङ्गमम् तथा स्थावरम् लिङ्गमित्याहुस्तरुगुल्मादिकम् तथा जङ्गमम् लिङ्गमित्याहु कृमिकीटादिकम् तथा स्थावरस्य च शुश्रूषा जङ्गमस्य च तर्पणम् तत्तत्सुखानुरागेण शिवपूजाम् विदुर्बुधाः पीठम् अम्बामयम् सर्वम् शिवलिङ्गम् च चिन्मयम् यथा देवीमुमामङ्गे धृत्वा तिष्ठति शङ्करः तथा लिङ्गमिदम् पीठम् धृत्वा तिष्ठति सन्ततम् एवम् स्थाप्य महालिङ्गम् पूजयेत् उपचारकैः नित्यपूजा यथाशक्ति ध्वजादिकरणम् तथा इति संस्थापयेल्लिङ्गम् साक्षात् शिवपदप्रदम् अथवा चरलिङ्गे तु षोडशैरुपचारकैः पूजये च यथान्यायम् क्रमा शिवपदप्रदम् आवाहनम् चासनम् च अर्घ्यम् पाद्यम् तथैव च तदङ्गाचमनम् चैव स्नानमभ्यङ्गपूर्वकम् वस्त्रम् गन्धम् तथा पुष्पम् धूपदीपनिवेदनम् नीराजनम् च ताम्बूलम् नमस्कारो विसर्जनम् अथवा अर्घ्यादिकम् कृत्वा नैवेद्यान्तम् यथाविधि अथाभिषेकम् नैवेद्यम् नमस्कारम् च तर्पणम् यथाशक्ति सदा कुर्यात् क्रमाशिवपदप्रदम् अथवा भानुषे लिङ्गे प्यार्षे दैवे स्वयम्भुवि स्थापिते अपूर्वके लिङ्गे सोपचारम् यथा तथा पूजोपकरणे दत्ते यत्किञ्चित् फलमश्नुते प्रदक्षिणा नमस्कारैः क्रमाशिवपदप्रदम् लिङ्गदर्शनमात्रम् वा नियमेन शिवप्रदम् मृत्पिष्टघोष कृत्पुष्पैः करवीरेण वा फलैः गुडेन नवनीतेन भस्मनान्नैर्यथा रुचिम् लिङ्गम् यत्तेन कृत्वान्ते यजेत् तदनुसारतः अङ्गुष्टादावपि तथा पूजामिच्छन्ति केचन लिङ्गकर्मणि सर्वत्र निषेधोऽस्ति न कर्हिचित् सर्वत्र फलदाता हि प्रयासानुगुणम् शिवः अथवा लिङ्गदानम् वा लिङ्गमूल्यमथापि वा श्रद्धया शिवभक्ता यदत्तम् शिवपदप्रदम् अथवा प्रणवम् नित्यम् जपेत् दशसहस्रकम् सन्ध्ययोचसहस्रम् वा ज्ञेयम् शिवपदप्रदम् जपकाले मकारान्तम् मनःशुद्धिकरम् भवेत् समाधौ मानसम् प्रोक्तमुपांशु सार्वकालिकम् समानप्रवनम् चेदम् बिन्दुनादयुतम् विदुः अथ पञ्चाक्षरम् नित्यम् जपेत् अयुतमादरात् सन्ध्ययोचसहस्रम् वा ज्ञेयम् शिवपदप्रदम् प्रणवेनादिसंयुक्तम् ब्राह्मणानामिधिष्यते दीक्षायुक्तम् गुरोर्ग्राह्यम् मन्त्रम् ह्यदफलाप्तये कुम्भस्नानम् मन्त्रदीक्षा मातृकान्यासमेव च ब्राह्मणः सत्यभूतात्मा गुरुर्ज्ञानी विशिष्यते द्विजानाम् च नमः पूर्वम् अन्येषाम् च नमोऽन्तकम् स्त्रीणाम् च क्वचिदिच्छन्ति नमोऽन्ते च यथाविधि विप्रस्त्रीणाम् नमः पूर्वम् इदमिच्छन्ति केचन पञ्चकोटिजपम् कृत्वा सदाशिवसमो भवेत् एकद्वित्रिच धुक्कोट्या ब्रह्मादीनाम् पदम् व्रजेत् जपेत् अक्षरलक्षम् वा अक्षराणाम् हृदः पृथक् अथवा अक्षरलक्षम् वा ज्ञेयम् शिवपदप्रदम् सहस्रम् तु सहस्राणाम् सहस्रेण दिनेन हि जपेन्मन्त्रादि मन्त्रादिष्टसिद्धिर्नित्यम् ब्राह्मणभोजनात् अष्टोत्तरसहस्रम् वै गायत्रीम् प्रातरेव हि ब्राह्मणस्तु जपेन्नित्यम् क्रमा शिवपदप्रदाम् वेदमन्त्राम् च सूक्तानि जपेन् नियममाश्रितः एकम् दशार्णमन्त्रम् च शतोनम् च तदूर्ध्वकम् अयुतम् च सहस्रम् च शतमेकम् विना भवेत् वेदपारायणम् चैव ज्ञेयम् शिवपदप्रदम् अन्यान् बहुतरान् मन्त्रान् जपेद् अक्षरलक्षतः एकाक्षराम् तथा मन्त्रान् जपेद् अक्षरकोटितः ततः परम् जपेत् चैव सहस्रम् भक्तिपूर्वकम् एवम् कुर्याद्यथाशक्ति क्रमा शिवपदम् लभेत् नित्यम् रुचिकरम् द्वेकम् मन्त्रमामरणान्तिकम् सहस्रम् ओमिति जपेत् सर्वाभीष्टम् शिवाज्ञया पुष्परामादिकम् वापि पुष्पारामादिकम् वापि तथा सम्मार्जनादिकम् शिवाय शिवकार्याते कृत्वा शिवपदम् लभेत् शिवक्षेत्रे तथा वासम् नित्यम् कुर्याच्च भक्तितः जडानामजडानाम् च सर्वेषाम् भुक्तिमुक्तिदम् तस्माद्वासम् शिवक्षेत्रे कुर्याद् आमरणम् भुरः लिङ्गाद्हस्तशतम् पुण्यम् क्षेत्रे मानुषके विदुः सहस्रारत्निमात्रम् तु पुण्यम् क्षेत्रे तथार्चके दैवलिङ्गे तथा ज्ञेयम् सहस्रारत्निमानदः धनुः प्रमाणसाहस्रम् पुण्यम् क्षेत्रे स्वयम्भुवि पुण्यक्षेत्रे चितावापि कूपाद्यम् पुष्कराणि च शिवगङ्गेति विज्ञेयम् शिवस्य वचनम् यथा तत्र स्नात्वा तथा दत्त्वा जपित्वा हि शिवम् व्रजेत् शिवक्षेत्रम् समाश्रित्य वसेद् आमरणम् तथा द्वाहम् दशाहम् मास्यम् वा तपिण्डीकरणम् तु वा आब्दिकम् वा शिवक्षेत्रे क्षेत्रे पिण्डमथापि वा सर्वपापविनिर्मुक्तः सद्य शिवपदम् लभेत् अथवा सप्तरात्रम् वा वसेद्वा पञ्चरात्रकम् त्रिरात्रमेकरात्रम् वा क्रमा शिवपदम् लभेत् वर्णानुगुणम् लोके स्वाचारात् प्राप्नुते नरः वर्णोद्धारेण भक्त्या च तत्फलातिशयम् नरः सर्वम् कृतम् कामनया सद्यः फलमवाप्नुयात् सर्वम् कृतमकामेन साक्षात् शिवपदप्रदम् प्रातर्मध्याह्नसायाह्नम् अहस्त्रिष्वेकदक्रमात् प्रातर्विधिकरम् ज्ञेयम् मध्याह्नम् कामिकम् तथा सायाह्नम् शान्तिकम् ज्ञेयम् रात्रावपि तथैव हि कालो निशीथो वै प्रोक्तो मध्ययामद्वयम् निशि शिवपूजाविशेषेण तत्काले अभीष्टसिद्धिता एवम् ज्ञात्वा नरः कुर्वन् यथोक्तफलभाग् भवेत् कलौ युगे विशेषेण फलसिद्धिस्तु कर्मणा उक्तेन केनचिद्वापि ह्यधिकारविभेदतः सद्वृत्तिः पापभीरुश्चेत् तत्तत्फलमवाप्नुयात् ऋषयवूचुः अध क्षेत्राणि पुण्यानि समासात् कथयस्वनः सर्वा स्त्रियश्च पुरुषा यान्याश्रित्य पदम् लभेत् सूतयोगिवरश्रेष्ठ शिवक्षेत्रागमांस्तथा सूत उवाच शृणुत श्रद्धया सर्वक्षेत्राणि च तदागमान् इति श्रीशिवमहापुराणे प्रथमायाम् विद्येश्वरसंहितायाम् एकादशोऽध्यायः ओम् इदुवरलियुम् ஸ்ரீ சிவமகாபுராணத்துல முதலாவது வித்யேஸ்வர சம்ஹிதையில பதினோரு அத்தியாயங்கள் பூர்த்தி பண்ணியிருக்கோம். அடுத்து பன்னிரெண்டாவது அத்தியாயம் வித்யேஸ்வர சம்ஹிதையில ஆரம்பம், அது அடுத்து. ஓம் தத் சத்.